एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण द्वाषष्ट्युत्तर द्विसहस्रतम विक्रम वर्षस्य अनन्तरं सार्वजनिक पदे नियुक्तानां प्रमुख राजनीतिक दलानां पदाधिकारिणां उच्च पदस्थ कर्मचारिणां च सम्पद विवरणं संकलयितुम् अनुसन्धातुं च अनुसन्धान आयोग संघटितोऽस्ति प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन मन्त्री परिषद उपवेशेन सर्वोच्च न्यायालयस्य पूर्व न्यायाधीशस्य राजेन्द्र कुमार भण्डारिण संयोजकत्वे चतुस्सदस्यात्मक आयोग संघटितोऽस्ति आयोगस्य सदस्यपदे पूर्व न्यायाधीशौ चण्डी राज ढकाल पुरूषोत्तम पराजुली च पूर्व प्रहरी नायब महानिरीक्षक गणेश केसी चार्टर्ड एकाउण्टेण्ट पदीय प्रकाश लम्सालश्च वर्तन्ते प्रधानमन्त्रिणः बालेन्द्र शाहस्य नेतृत्वे सर्वकारस्य संघटनस्य अनन्तरं सर्वकारेण चैत्रमासस्य त्रयोदशे दिवसे पञ्चदशानां दिवसानाम् अभ्यन्तरे समितिं संघटयितुं निर्णीतमासीत् एवमेव मन्त्रिपरिषद उपवेशेन भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतायाः घटनायाः अनुसन्धानाय संघटितेन कार्की आयोगेन सुरक्षा संयन्त्राणां सहभागितायाः विषये विहितस्य परामर्शनस्य अध्ययनं कृत्वा प्रतिवेदनं प्रस्तोतुम् उच्च न्यायालयस्य पूर्व न्यायाधीशस्य प्रेमराज कार्किणः संयोजकत्वे समितिं संघटयितुं निर्णीतमस्ति गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतायाः घटनायाः अनुसन्धानार्थं संघटितेन अनुसन्धानायोगेन प्रस्तुतस्य प्रतिवेदनस्य क्रियान्वयनस्य विषये सुरक्षा संयन्त्रस्य विषयम् अधीत्य परामर्शम् उच्च न्यायालयस्य पूर्व न्यायाधीशस्य प्रेमराज कार्किणः संयोजकत्वे समितिः संघटिता अस्ति इति सर्वकारस्य प्रवक्ता शिक्षामन्त्री सस्मित पोखरेलः असूचयत् प्रधानमन्त्रिणा बालेन्द्र शाहेन प्रतिनिधिसभायां प्रतिनिधित्वं कुर्वद्भिः समानुपातिक सांसदैः सह राष्ट्रिय गौरवयुतानाम् आयोजनानां राजनैतिक महत्वयुतानां कार्यक्रमाणां च विषये विमृष्टमस्ति सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्यः सम्भूते विमर्शने समानुपातिक सांसदैः स्वकीयानां क्षेत्राणां समुदायानां समस्यानां समाधानस्योपायानां च विषयेष् धारणा व्यक्तासीत् विमर्शने स्वकीयानां क्षेत्राणां विकासं प्रभावपूर्णरूपेण अग्रेसारयितुम् आवश्यकीनां कार्यनीतिनां कार्यक्रमाणाम् अवरुद्धानाम् आयोजनानां च अग्रेसारणस्य विषयेष् च विमृष्टमासीदिति सांसदैः ज्ञापितम् वर्तते विमर्शने सांसदः दीर्घकालिक विकासस्य कृते सार्वजनिक कृते राष्ट्रिय प्रतिबद्धता पत्रे उल्लिखितायाः प्रतिबद्धतायाः क्रियान्वयनाय श्रोतांसि सुनिश्चित्य कार्यसम्पादनस्य सिम्नः निर्धारणे बलं दत्तवन्तः विमर्शनानन्तरं प्रधानमन्त्री शाह समानुपातिक सांसदानां भूमिकां राष्ट्रिय मूलाधारस्य समुदायस्य च मध्ये सेतुः अस्तीति प्रत्यपादयत् तदवसरे संसदि प्रतिनिधित्वं कुर्वतां विभिन्नानां राजनीतिक दलानां समानुपातिक पक्षतः निर्वाचितानां सांसदानां सहभागिता आसीत् सभामुख डोलप्रसाद अर्याल आरोग्याभियानेन विश्वेस्मिन् विश्वे वर्धमानं द्वन्द्वं जलवायु संकटं चिन्तांश न्यूनीकृत्य मानवतायाः भावनां संस्थापयितुं सहयोगो भविष्यति इति विश्वासः व्यक्तोऽस्ति अन्तर्राष्ट्रिय आरोग्य दिवसस्य अवसरे पूर्वे द्यु टुडीखेलवर्तिनी सैनिक मञ्चे आयोजिते कार्यक्रमे सभामुख अर्याल आरोग्यं रोग सम्बद्ध विषयस्य अपेक्षयापि शारीरिक मानस सामाजिक भावनात्मक सन्तुलनादि समग्र अवस्थानां विषयोऽस्तीत्यतः विषयस्य अस्य विश्वव्यापी प्राथमिकतायाः रूपेण संस्थापनस्य आवश्यकता अस्ति इति अवोचत् देशस्य समग्रार्थिकावस्थायाः विषयं ज्ञातुं विकास आयोजनां निर्मातुं च आवश्यकानां विवरणानां संकलनाय ह्यस्तनदिवसा द्वितीया राष्ट्रिय आर्थिक गणना प्रारब्धा अस्ति राष्ट्रिय तथ्यांक कार्यालयेन ह्य पत्रकार सम्मेलनम् आयोज्य आराष्ट्रं चतुरशीत्यां स्थानेषु जनपदार्थिक गणना कार्यालयान् संस्थाप्य तथ्यांकानां संकलनं विधीयमानमस्ति इति ज्ञापितं वर्तते गणनायाः कृते चतुःसहस्राणि चतुःशतं त्रयस्त्रिंशच्च गणकाः सुपरिवेक्षिकाश्च आगामिनः आषाढमासस्य सप्तमं दिवसं यावत् परिचालिताः वर्तन्ते प्रतिनिधि सभा अन्तर्गतानाम् विषयगत समितिनाम् सभापतिनाम् निर्वाचनम् श्वभविता। श्व शुक्रवासरे दिवा एकवादने आहुतेषु सम्बद्ध समितिनाम् उपवेशेषु प्रस्तावकस्य प्रस्तावस्य समर्थकस्य समर्थनस्य च अनन्तरं प्रस्तावः निर्णयार्थं प्रस्तोष्यते इति प्रतिनिधिसभायाः सचिवः हर्कराज राय अज्ञापयत्। संघीय संसदः अन्तर्गतं प्रतिनिधिसभायाः दश राष्ट्रियसभायाः चतुष्टः उभयोः सदनयोः द्वे संयुक्ते च समितयः वर्तन्ते। ह्यस्तन दिवसात् देशस्य सर्वै स्थानीयस्तरै विभिन्न कार्यक्रमैस्सह व्यक्तिगत घटनानां पंजीकरण सम्बद्ध सप्ताह संचालितो वर्तते। राष्ट्रिय परिचय पत्र पंजीकरण विभागस्य अनुरोधस्य अनुसारेण नागरिक स्तरे व्यक्तिगत घटनायाः पंजीकरण सम्बद्ध जनसंचेतनायाः अभिवर्धनस्य उद्देश्येन आराश्रम सप्ताहोऽयं संचाल्यमानो वर्तते। परराष्ट्र मन्त्रिणा शिशिर खनालेन सह नेपालस्य कृते जर्मनी देशस्य राजदूतेन उडो युजेन भोज इत्यनेन मेलवार्ता विहिता अस्ति। मन्त्रालये ह्य सम्भूते मेलने अनयोर्मध्ये नेपाल जर्मनी देशयोः सम्बन्धस्य विविधेष् विषयेष् विमृष्टमस्ति इति मन्त्रालयेन ज्ञापितम् वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रिणा सस्मित पोखरेलेन सह नेपालस्य कृते बेलायत देशस्य राजदूतेन रफेन इत्यनेन मेलवार्ता विहिता अस्ति। यो मन्त्रालये सम्भूते मेलने अनयोर्मध्ये नेपाल बेलायत देशयो सम्बन्धस्य पारस्परिक सहयोगस्य सहकार्यस्य च विविधेष् विषयेष् विमृष्टम् आसीत्। नेपाली कांग्रेस दलस्य पूर्व उपसभापतिं पूर्णबहादुर खड्गाभिदं सप्तानां दिवसानां अभ्यन्तरे उत्तरस्य प्रदानत्वेन स्पष्टीकरणं स्प्रष्टुं निर्णीतं वर्तते। कांग्रेस दलस्य अनुशासन समितेः ह्यस्तनोपवेशेन दलस्य आधिकारिकं पत्रलेखन प्रपत्रं प्रयुज्य आत्मनि अविद्यमानं दायित्वम् उपयुज्य नेत्रा खड्गाभिदेन गत चैत्र मासस्य त्रिंशे दिवसे विधान विपरीतं कार्यं विहितमित्युक्त्वा स्पष्टीकरणं याचितुं निर्णीतं वर्तते। एवमेव अनुशासन समित्या गत फाल्गुनस्य एकविंशे दिवसे सम्पन्ने प्रतिनिधिसभा सदस्यानां निर्वाचने दलस्य विधानस्य विपरीततया अनुशासनस्य उल्लंघनकर्तॄणां जनानां विरुद्धे निवेदन प्रदानस्य अवधिम् अस्यैव वैशाख मासस्य अन्तं यावद् वर्धयितुं चापि निर्णीतम् अस्ति। लाञ्चाङ्ग राष्ट्रिय निकुञ्ज क्षेत्रस्य संरक्षणाय संचेतनाम् अभिवर्धयितुं ह्यस्तन दिवसात् वन्यजन्तु सप्ताह प्रारब्धोऽस्ति। रसुआवर्तिना लाङ्चाङ्ग राष्ट्रिय निकुञ्ज कार्यालयेन आयोजितेन सप्ताहव्यापी कार्यक्रमेण संरक्षणं प्रति समुदाय स्तरेष् संचेतनायाः अभिवृद्धे लक्ष्यं गृहीतमस्ति।